ओम नमो भगवते वासुदेवाय। अथ द्वात्रिंशोऽध्यायः। श्रीशुक उवाच, इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा, रुरुतुः सुस्वरं राजन् कृष्णदर्शनलालसाः। तासामाविर्भूच्छौरिः स्मयमानमुखाम्बुजः, पीताम्बरधरस्रग्वी साक्षान्मन्मथ मन्मथः। तम् विलोक्यागतम् प्रेष्ठम् प्रीत्युत्फुल्लदृशो बलाः, उत्तस्थुर्युगपत् सर्वास्तन्वः प्राणमिवागतम्। काचित् कराम्बुजम् शौरेर्जगृहेऽञ्जलिना मुदा, काचिद्दधार तद्बाहु मनसे चन्दनरूषितम्। काचिदञ्जलिना गृह्णात्तन्वी ताम्बूलचर्वितम्। एका तदङ्घ्रिकमलम् सन्तप्तास्तनयोरधात्, एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला, ग्नतीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा। अपरा निमिषदृग्भ्याम् जुषाणा तन्मुखाम्बुजम्, आपीतमपि नातृप्यत् सन्तस्तच्चरणम् यथा। तम् काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च, पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता। सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः, जहुर्विरहजम् तापम् प्राज्ञम् प्राप्य यथा जनाः। ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः, व्यरोचताधिकम् तात पुरुषः शक्तिभिर्यथा। ताः समादाय कालिन्द्या निर्विश्य पुलिनम् विपुः, विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम्। शरच्चन्द्रांशु सन्दोहध्वस्तदोषातमः शिवम्, कृष्णायाश्चतरलाचितकोमलवालुकम्। तद्दर्शनाल्लादविधूतहृद्रुजो मनोरथान्तम् श्रुतयो यथा ययुः, स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचिकृपन्नासनमात्मबन्धवे। तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः। चकासगोपी परिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपदम् वपुर्दधत्, सभाजयित्वा तमनङ्गदीपनम् सहासलीले क्षणविभ्रमभ्रुवा। संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे। गोप्य ऊचुः, भजतोऽनुभजन्त्येक एक एतद्विपर्ययम्, नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः। श्रीभगवानुवाच, मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमाहिते, न तत्र सौहृदम् धर्मः स्वार्थार्थम् तद्धि नान्यथा। भजन्त्यभजतो ये वै करुणाः पितरो यथा, धर्मो निरपवादोऽत्र सौहृदम् च सुमध्यमाः। भजतोऽपि न वै केचित् भजन्त्यभजतः कुतः, आत्मा रामायाप्तकाम अकृतज्ञा गुरुद्रुहः। नाहम् तु सख्यो भजतोऽपि जन्तून्, भजाम्यमीषामनुवृत्तिवृत्तये। यथा धनो लब्धधने विनष्टे, तच्चिन्तयान्यन्निभृतो न वेद। एवम् मदर्थोज्झितलोकवेद, स्वानाम् हि वो मय्यनुवृत्तये बलाः। मया परोक्षम् भजता तिरोहितम्, मासूयितुम् अर्हत तत्प्रियम् प्रियाः। न पारयेऽहम् निरवद्य संयुजाम् स्वसाधुकृत्यम् विबुधायुषापि वः। या मा भजन् दुर्जरगेह शृङ्खलाः, संवृश्य तद्वः प्रतियातु साधुना। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे रासक्रीडायाम् गोपी सान्त्वनम् नाम द्वात्रिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।